अथ सर्पसूक्तम्। ब्रह्मलोके च ये सर्पा शेषनागपुरोगमाः नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा। विष्णुलोके च ये सर्पा वासुकिप्रमुखाश्च ये नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा। रुद्रलोके च ये सर्पास्तक्षकप्रमुखास्तथा नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा। खाण्डवस्य तथा दाहे स्वर्गं ये च समाश्रिताः नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा। सर्पसत्रे च ये सर्पा आस्तीकेन च रक्षिताः नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा। मलये चैव ये सर्पा कर्कोटप्रमुखाश्च ये नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा। धर्मलोके च ये सर्पा वैतरण्यान् समाहिताः नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा। समुद्रे चैव ये सर्पा पाताले चैव संस्थिताः नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा। ये सर्पाः पर्वताग्रेषु दरीसन्धिषु संस्थिताः नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा। ग्रामे वा यदि वारण्ये ये सर्पाः प्रचरन्ति हि नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा। पृथिव्यां चैव ये सर्पा बलिसंस्थिताः नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा। रसातले च ये सर्पा अनन्ताद्या महाविशाः नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा। इति श्री सर्पसूक्तम् सम्पूर्णम्।